इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी श्वः बिहार पश्चिम बंग राज्ययोः भ्रमणं करिष्यति। यात्रायाः समये प्रधानमन्त्री बिहारस्य गया नगरे प्रायः 13,000 कोटि रूप्यकाणां बहुविध विकासात्मक परियोजनानां शिलान्यासम् उद्घाटनं च विधास्यति। श्रीमोदी गंगा नद्याः उपरि ओंटा सिमरिया सेतु परियोजनायाः उद्घाटनं च करिष्यति, येन उत्तर दक्षिण बिहारयोः मध्ये सम्पर्कः वर्धिष्यते। सः NH-31 इत्यस्य बख्तियारपुरतः मोकामा पर्यन्तं चतुष्पथ खण्डस्य अपि उद्घाटनं करिष्यति, येन जनसम्मर्दः अल्पः भविष्यति। स्वास्थ्यस्य मूल सौकर्याणां कृते प्रोत्साहनं कृत्वा प्रधानमन्त्री श्रीनरेन्द्रमोदी मुजफ्फरपुरे होमी भाभा कर्करोग चिकित्सालयस्य अपि च शोधकेन्द्रस्य उद्घाटनं च करिष्यति। एषा अत्याधुनिक सुविधा बिहार राज्यस्य समीपस्थ राज्यानां च रोगिणां कृते उन्नत सुलभ कर्करोग परिचर्यां प्रदास्यति। श्रीमोदी गया दिल्ली नगरयोः मध्ये अमृत भारत एक्सप्रेस यानस्य वैशाली कोडरमा नगरयोः मध्ये च बौद्ध सर्किट रेल यानस्य च ध्वजारोहणं करिष्यति। रेलमन्त्री अश्विनी वैष्णवः अघोषयत् यत् दीपावली छठ उत्सवावसरेषु 12,000 विशेष रेलयानानि सञ्चाल्यन्ते इति। तस्य बिहार NDA नेतृभिः सह चर्चायाः अनन्तरम् इयं घोषणा विहिता।
जो दीपावली और छठ के आगामी दो बड़े त्योहार हैं, इसके लिए विशेष व्यवस्था की जाए ऐसी डिस्कशन में आया, और साथ ही साथ ये भी ध्यान रखा जाए कि किस तरह से हमारे यात्रियों को रिटर्न जर्नी में सुविधा हो। तो इस चर्चा के बाद में ये तय हुआ 12,000 स्पेशल ट्रेन्स चलाई जाएंगी, जिससे कि यात्रियों को इन दो बड़े पर्वों पर किसी भी प्रकार की असुविधा न हो।
सः अवोचत् यत् जनानां यात्रायाः आवश्यकतानां विषये राजनेतृभिः सह चर्चायाः अनन्तरं मन्त्रालयः न केवलं नूतनानि रेलयानानि अपि तु अन्याः अनेकाः योजनाः मूलसौकर्यपरियोजनाः च निर्मात् इति। मन्त्री अवोचत् यत् सामान्यवर्गस्य यात्रिकाणां सौकर्यार्थं दिल्ली गया सहरसा अमृतसर छपरा दिल्ली मुजफ्फरपुर हैदराबाद इत्येतान् योजयितुं चत्वारि नूतनानि अमृत भारत रेलयानानि आरप्स्यन्ते इति। दिल्लीनगरे बिहार NDA नेतारः आगामी दीपावली छठ उत्सवानां कृते रेलव्यवस्थायाः समीक्षार्थं केन्द्रीय रेल मन्त्रिणा अश्विनी वैश्वेन सह मिलितवन्तः। ह्यः IT अथ इलेक्ट्रॉनिक्स मंत्री अश्विनी वैष्णवः अस्य वर्षस्य ऑनलाइन गेमिंग इत्यस्य प्रचारः विनिमयञ्चाख्यं विधेयकं लोकसभायाः पुरः स्थापितवान्। अस्य विधेयकस्य उद्देश्यम् एतादृशानां क्रीडानां प्रतिकूलताभिः सामाजिकार्थिक मनोवैज्ञानिक गोपनीयतादिभिः प्रभावात् व्यक्तेः विशेषतः यूनां निर्धन जन संख्यानां च रक्षणमस्ति इति। छत्तीसगढ़ राज्ये 10 महिलाभिः सह 31 माओवादिनः ह्यः शस्त्राणि त्यक्त्वा शरणागताः अभवन्। तेभ्यः प्रायः 25,00,000 रूप्यकाणां पुरस्कारस्य घोषणा कृता आसीत्। विदेशमन्त्री डॉ एस जयशंकरः मॉस्को नगरे रशिया देशस्य प्रतिनिधिभिः प्रमुखैः विद्वद्भिः चिन्तकैश्च सह वार्तालापम् अकरोत्। सामाजिक प्रसार माध्यमे मन्त्री अलिखत् यत् ते भारत रशिया सम्बन्धेषु समकालीन विश्व भूराजनीति विषये भारतस्य दृष्टिकोणस्य विषये च चर्चां कृतवन्तः इति वार्ताः।